ഗിരിമമ്പരം പരിമൃഷൻ ലംബോധര പാതുമാം വാമം യസ്യ വപുസ്സമസ്ത ജഗതാ മാതാ പിതാ ചേതരത് യത് പാദാംബുജനോ सुखम् अहमेवाहमेवाहम् अहम् ब्रह्मास्मि केवलम् अहम् भाव विहीनोऽस्मि विहीनोऽस्मीति मे न च सर्वदा ब्रह्मरूपोऽस्मि अहम् ब्रह्मास्मि केवलम् तूष्णीमेवावभासोऽस्मि अहम् ब्रह्मास्मि केवलम् किञ्चिन्नास्ति परो नास्ति किम् केवलम् इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् भूतं भविष्यन् न क्वापि वर्तमानं न वै क्वचित् केवलं ब्रह्म क्वचित् केवलं ब्रह्म मात्रत्वात् नास्ति नास्त्येव सर्वदा वाचा यदुच्यते किञ्चित् मनसा मनुते च यत् बुद्ध्या निश्चीयते विनिश्चितम् स्नानाच्छुद्धिर्न हि क्वापि ध्यानाच्छुद्धिर्न हि क्वचित् गुणत्रयम् नास्ति किञ्चित् गुणत्रय मधापि वा एकद्वित्वपदम् निश्चिनु केवलं ब्रह्म मात्रत्वात् न किञ्चिदवशिष्यते आकाशो भूर्जलं वायुः अग्निर्ब्रह्म हरिशिवः यत्किञ्चिदन्यत् किञ्चित् च सर्वं चिन्मयमेव हि अखण्डैकरसो विष्णुः अखण्डैकरसशिवः अखण्डैकरसो ब्रह्म अखण्डैकरसासुराः अखण्डैकर मन्त्रः अखण्डैकरसो जपः अखण्डैकरसं ध्यानम् अखण्डैकरसं पदम् शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् मानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् सदा विचार रूपोऽस्मि अहंकारश्च तेजश्च सर्वं शशविषाणवत् चतुर्विंशति तत्त्वं च साधनानां चतुष्टयं सजातीयं विजातीयं सर्वं शशविषाणवत् देहोऽहमिति सङ्कल्पः स हि संसार उच्यते कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् देहोऽहमिति सङ्कल्पं तत्प्रपञ्चमिहोच्यते कालत्रयेऽपि तन्नास्ति सर्वं कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् देहोऽहमिति सङ्कल्पः तदेव मलमुच्यते कालत्रयेऽपि तन्नास्ति सर्वं मनयेव महादुःखं मनयेव जरादिकं मनयेव हि कालं च मनयेव मलं सदा मनयेव हि संकल्पो जडं सदा मनयेव हि चित्तं च मनोऽहङ्कारमेव च निदाघ्र उवाच पुत्र वा भवता स्नानं क्रियते नितरां गुरो मन्त्रं स्नानकालं तर्पणं च वदस्व मे रुगुरुवाच आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः इदमे इदमेव महास्नानम् अहं ब्रह्मेति निश्चयः आत्ममात्र स्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् इदमेव परं ब्रह्म Yeah. ஸ்தலபம் ப்ரஹ்மனிஷ்டானாம் சுலபம் சர்வபோதகம் அஹங்காரமசத்வித்தி அபிமானம் ததஸ்தி சேத் ந சித்த ஸ்மரணம்
நமித்ரம் நச்ச சோதரஹ.
साधन संपन्नः सोधिका श्रुतिः जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति स्वप्ने श्रवणा परः एतद् ग्रन्थ प्रवक्ता हि साक्षात् देवी न संशयः गुरुरेव शिव साक्षात् गुरुरेव शिव स्वयं शिवे रुष्टे गुरु
सूत उवाच।